संस्कृत रीडिंग एट कालिदास कथा पेज 405। भारत देशे पुरा कालिदासो नाम महाकविर बभूव तस्येयं कथा श्रूयते। तरुणः कालिदास उज्जयिनी नगरे वसत् तस्य बुद्धिर्नासीदेव किन्तु स स्वरूपो भवत्। एकदा राजा राजकन्याया विवाहः कार्य इत्यघोषयत्। यो नरः सर्वेषु जनेषु पण्डिततमो भवेत् तस्मै राजकन्या प्रदीयेत्। केचित् दुर्जना राजकन्यां प्रति गत्वा तामेवमकथयन्, हे राजकन्ये, नगरेऽस्मिन् कालिदासो नाम महापण्डितो निवसति, स एव तव पतिर्भवतु, तेन सह तव जीवितं सुखमयं भवेदिति। तद्वचनं श्रुत्वा सा राजकन्या कालिदासमेवाचिन्तयत् नान्यं पुरुषम्। अन्ते च तस्याः कालिदासेन सह विवाहो जातः। अपि तु कालिदासो महान् अपण्डित इति सा विवाहादनन्तरमबोधत्। सा कालिदासमवदत्, रे मूर्ख, मां स्पृश, नाहमिच्छामि त्वामपण्डितं द्रष्टुं यत्र क्वापि गच्छेति। ततः कालिदासस्तन्नगरं त्यक्त्वा वनं गतः। वने च स कालीदेव्या मन्दिरमपश्यत्। तत्र स देव्या भक्तिञ्चकार। बहुना कालेन प्रसन्ना देवी तस्मै बुद्धिं प्रायच्छत्। एवं देव्याः प्रसादेन स महाकविर्बभूव। तस्मात् तञ्जनाः कालिदास इति वदन्ति।